सप्ताजितस्वमत लुब्धवदर्कलब्धौ दिव्यम् शमन्तकमणिो भगवन्नयाजेः तत्कारणौ बहुविधौ मम भाति नूनौ तस्यात्मजा त्वयिरत चलतो विवोढु अदत्तम् तम् तुभ्यम् मणिवरमनेनाल्पमनसः रसेनस्तद्भ्राता गलभु विवसन् प्राप हृदयम् अहन्नेनम् सिंहो मणिमहसि मांसभ्रमवशात् कपीन्द्रस्तम् हत्वा मणिमपि च बालाय ददिवान् शशम् सुसत्ताजिद्गिरमनुजना स्वामणिकरम् जनानाम् पीयूषम् भवति गुणिनाम् दोषकणिक ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनम् तम् दृष्ट्वा हरिमपि गतो भूः कपिगुहाम् भवन्तम् अवितर्कयन् अतिवया स्वयम् जाम्बवान् मुकुन्द शरणम् हि माम् कैहरो दुमित्यालपन् विभो रघुपते हरे जय जय जलौ मुष्टिभिश्चिरम् तव समर्चनम् यदि तभक्त चूडामणिः बुद्ध्वा गतेन दत्तान् अवरमणीम् वरमणीम् च परिगृह्णन् अनुगृह्णन्नम्मागा सपदि च सत्राजिते मणिम् प्रादाः तदनु स खलु व्रीला लोलो विलोल विलोचनाम् दुहितरमहो धीमान् वामाङ्गिरैव परार्पितः अधिकमणिना तुभ्यौ लभ्यौ समेत्य भवानपि प्रमुदितमनस्तस्यैवादान्मणि उग्रहनाशयः लीला उला प्रमयति त्वयि सत्यवामाम् कौन्तेयदाह कथयात कुरुम् प्रयाते हीगान्दिनेय कृतवर्म गिराणि पात्य सत्राजितम् शतधनुर्मणिमाजहार शोकात् कुरूनुपगताम् अवलोक्य कान्ताम् हत्वा द्रुतम् शतधनुम् समहर्षयस्ताम् रत्ने सशङ्क इव मैथिलगेहमेत्य रामो गदा समशिशिक्षत दार्त राष्ट्रको अक्रोह एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् अक्रूरतो मणिमनाहृतवान् पुनस्त्वम् तस्यैव भूतिमुपधातुमिति ब्रुवन्ति भक्तस्त्वयि स्थिरतरः स हि गान्धिनेयस्तस्यैव कापतमतिः कथमीश जातः विज्ञानवान् प्रसमवानहमित्युदीर्णः गर्वम् ध्रुवम् शमयितो भवता कृतैव यातौ भयेन कृतवर्मयुतौ पुनस्तमाहूय तद्विनिहितम् च मणिम् प्रकाश्य तत्रैव सुव्रतधरे निनिदाय तुष्य वामाकुचान्तशयनः पवने शपाय आरा